एकोनविंशोऽध्यायः अनुभवज्ञानेन निर्धूतविकल्पवृत्तेः स्वमहिम्निस्थितस्य स्वस्य आत्मनः अन्यत् किञ्चिदपि नास्ति इति जनकस्य स्वानुभवोद्घोषः। जनक उवाच तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् नानाविधपरामर्शशल्योद्धारः कृतो मया। क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता क्व द्वैतम् क्व च वा द्वैतम् स्वमहिम्निस्थितस्य मे। क्व भूतम् क्व भविष्यद्वा वर्तमानमपि क्व वा क्व देशः क्व च वा नित्यम् स्वमहिम्निस्थितस्य मे। क्व चात्मा क्व च वा नात्मा क्व शुभम् क्वाशुभम् तथा क्व चिन्ता क्व च वा चिन्ता स्वमहिम्निस्थितस्य मे। क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणम् तथा क्व तुरीयम् भयम् वापि स्वमहिम्निस्थितस्य मे। क्व दूरम् क्व समीपम् वा बाह्यम् क्वाभ्यन्तरम् क्व वा क्व स्थूलम् क्व च वा सूक्ष्मम् स्वमहिम्निस्थितस्य मे। क्व मृत्युः जीवितम् वा क्व लोकाः क्वास्य क्व लौकिकम् क्व लयः क्व समाधिर्वा स्वमहिम्निस्थितस्य मे। अलम् त्रिवर्गकथया योगस्य कथयाप्यलम् अलम् विज्ञानकथया विश्रान्तस्य ममात्मनि। ॐ